पादं ते सरसीरुहतृहमिमं यत्सेवते पद्मभूर्नूनं तत्स्वनिवासपङ्कजवर श्रीलङ्कनाशङ्कया गोविन्दोऽपि जवारिराशिदुहिदुर्वासाब्जपादापि याम् स्वस्यैवाग्रकरोद्गृहीतकमल त्राणापिलाशेन वा सेवन्ते कुलसम्पतेन कमयाः शीतांशवस्त्वत्पदम् तद्भागो ननु वीक्ष्यते हि नितरा मन्येषु शीतांशुषु एको पालक एव मैलमयिते यातो ललाटात्मता मन्यो निर्मलमण्डलतशा मन्यौ तु धन्यौ कतौ।